इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। महाराष्ट्रे भारतीय जनता पार्टीति दलस्य वरिष्ठो नेता प्रधानमन्त्री च नरेन्द्र मोदी उक्तवान् यत् महायुति सर्वकारेण महाराष्ट्रस्य मराठवाड़ा क्षेत्रस्य विकासाय विभिन्न कार्याणि सम्पादितानि। नांदेड इत्यत्र सभामेकां संबोधयन् श्रीमोदी अवदत् यत् विगत सार्ध द्विवर्षेषु मराठवाड़ा क्षेत्रे 80,000 कोटितोप्यधिक रूप्यकाणां निवेशः अभवत्। सः क्षेत्रे 11 सिंचन परियोजनानां विषयेपि प्रकाशितवान्। केन्द्र सर्वकारेण अमरावत्यां टेक्सटाइल पार्क इति वस्त्रोद्यानस्य आधारशिलां स्थापयित्वा कार्पासोत्पादकानां कृषकाणां कृते उद्योगानां आधारभूतसंरचनायाः प्रवर्धनं कृतम्। श्रीमोदी अवदत् यत् वस्त्रोद्यानं कार्पासकृषकाणां समृद्धेः मार्गं प्रशस्तं करिष्यति। अकोलायां विदर्भक्षेत्रस्य स्वीयां प्रथमनिर्वाचनसभां सम्बोधयन् श्रीमोदी अवदत् यत् तृतीय कार्यकाले तस्य सर्वकारेण कोट्यावत् रूप्यकाणां मूल्यानां नैकाः विकासपरियोजनाः समारब्धाः, यासु महाराष्ट्रे बह्व्यः आधारभूतसंरचनापरियोजनाः सम्मिलिताः सन्ति। सः विदर्भे सिञ्चनपरियोजनानां महत्वं प्रकाशितवान्। प्रधानमन्त्री अवदत् यत् प्राक्तन महाविकास अघाड़ी सर्वकारेण देवेन्द्र फडणवीस सर्वकारस्य महत्वाकांक्षिणः सिंचन परियोजनाः स्थगिताः। राज्ये महायुति गठबन्धनस्य पुनः सत्ताप्राप्तेः अनन्तरं वैनगंगा नलगंगा अथ पेनगंगा इंटरलाइन इति परियोजना स्वीकृता। अस्यां परियोजनायां नागपुर वर्धा मण्डलं च समेत्य पश्चिम विदर्भस्य सर्वाणि पञ्चमण्डलानि सिंचन प्रणाल्याः समाविष्टाः सन्ति। झारखण्डे विधानसभा निर्वाचन प्रचाराभियानं तीव्रगत्यां प्रचलति। एनडीए आईएनडीआईए इत्येतयोः नेतारः स्वपक्षस्य प्रत्याशिनां पक्षे मतदातॄन् आकर्षयितुं राज्ये जनसभाः कुर्वन्ति। भाजपायाः वरिष्ठः नेता प्रधानमन्त्री नरेन्द्रमोदी अद्य झारखण्डे द्वे सभे सम्बोधयिष्यति तथा च पथप्रदर्शनं करिष्यति। प्रधानमन्त्रिणः प्रथमा निर्वाचनसभा बोकारो नगरस्य चन्दन कियारी विधानसभाक्षेत्रस्य चण्डीपुर पादकन्दुक क्रीडांगणे भविष्यति। द्वितीया निर्वाचनसभा गढ़वा नगरस्य एरोड्रोम क्रीडांगणे भविष्यति। प्रधानमन्त्री रांचीनगरे पथप्रदर्शनम् अपि करिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य मुम्बईनगरे महाराष्ट्र विधानसभा निर्वाचनाय भारतीय जनता पार्टीति दलस्य घोषणापत्र इति संकल्पपत्रस्य विमोचनं करिष्यति। श्रीशाहः उत्तर महाराष्ट्र विदर्भ क्षेत्रयोः जलगावे बुलढाणायां अमरावत्यां च तिस्रः जनसभाः अपि सम्बोधयिष्यति। एशिया 25+ इत्यस्य शीर्ष सत्सु शैक्षिक संस्थानेषु 7 भारतीय संस्थानानि सम्मिलितानि सन्ति। शीर्ष 50 द्वौ विश्वविद्यालयौ शीर्ष षत्सु च 7 विश्वविद्यालयाः सन्ति। दिल्ल्याः भारतीय प्रौद्योगिकी संस्थानं 44 स्थाने, आईआईटी बॉम्बे 48 स्थाने अस्ति। भारतस्य पंकज आडवाणी कतर देशस्य दोहायां आईवीएसएफ इति विश्व विलियर्ड्स प्रतिस्पर्धायां विजयं प्राप्तवान्। निर्णायक स्पर्धायां तेन इंग्लैंड देशस्य रॉबर्ट हॉल इत्यसौ पराजितः। श्रृंखलायां भारतस्य सौरभ कोठारी कांस्य पदकं विजितवान् इति वार्ताः।